Sairam, dear listeners, and welcome back to the studios of Radio Sai, Prashanthi Nilayam, bringing you live broadcast every Thursday in the Asia stream of Radio Sai. As the proceedings in the Sai Kulwanth Hall come to a close, the devotees are silently lined up to have a glimpse of our Lord from close quarters and receive His abundant blessings. We shall now carry on with the evening session of this Thursday live, and Team Radio Sai's Ganesh invites you all for the first segment of this evening, the Radio Sai Vedam Tutor. Before we go ahead with the actual class, we would like to share with you all a valuable feedback that we had received from our dear listeners. The listeners have expressed their views that along with the teaching of the mantrams, the meanings and the significance of that particular mantram could also be explained for the better understanding, and also some places where the mistakes are chanted during the class should be mentioned and highlighted so that while learning they would not repeat the same and be conscious while chanting the Vedic mantras. With Bhagwan's grace, we are trying to incorporate these ideas which would benefit the listeners in learning the Vedas. In today's class, we will be learning the Sri Suktam, and before we start the mantram, we shall give a brief overview about the significance of chanting the Sri Sukta. The Sri Suktam of the Veda is recited with benefit especially on Fridays together with formal worship of the goddess for peace, plenty and all-round prosperity. Lakshmi, who is usually identified as the spouse of Vishnu or Narayana, represents the glory and magnificence of God. Narayana and Lakshmi actually stand for being and becoming. The Creator, in all His glory, manifests Himself in the variety in creation. Swami often pointed out in His divine discourses that we usually make the mistake of imagining that God is outside the world and the world has to be rejected in spiritual pursuits. This is an inadequate view because the world is the glory of God. As light is the glory of the sun, and light cannot be disassociated from the sun. The values and glories and the abundances of this vast creation cannot be separated from God, the Almighty, even in our love for God. Narayana represents God, and Lakshmi represents the magnificence, abundance, plentifulness, and the grandeur of Narayana. The creation can be used as a means to realize the Creator. It is to say that the Absolute can be reached only through the relative. The invisible can be contacted only through the visible. The universe of perception and experience includes the very mediator, the seeker, the student, or the devotee. Only an over-enthusiastic devotee can imagine that he is outside the world and then erroneously reject the values of life, forgetting thereby that in the act of such rejection, he has rejected himself too, since he is a part of this particular creation. A truly transcendent devotion to God is impracticable, for God is not merely transcendent, He is also immanent. The four Purusharthas, Dharma, Artha, Kama and Moksha, mentioned in the scriptures, very wisely lay down the principles of an integration of living, so that we have to be properly aligned inwardly, not only in our body, mind and spirit, but also outwardly, in respect of the manifold articles of creation, animate, inanimate, organic or inorganic. The prayer to Lakshmi in the Sri Suktam is a supplication to God through the visible form of His magnificence and glory, which is this indescribable universe. Lakshmi is prosperity, and all the wealth of life is nothing but prosperity. By wealth, we are not to understand merely gold and silver and the like. All forms of happiness, satisfaction, abundance and status come under Lakshmi, the divine glory. Any form of superior grandeur, greatness and glory is Lakshmi. Who can say that these are undesirable when they are all reflections of God Himself? Has not Bhagwan told us in the Gita that wherever there is glory, grandeur and excellence in a superb form of manifestation, it is He that is manifest there? Actually, in the end, there is nothing in the world that deserves our rejection. We have also to learn that meditation or yoga is not a rejection of realities, but also an inclusion of all existence, a harmony established between ourselves and the vast atmosphere around us. So, the glory of the earth is not always an obstacle to God realization, but rather, the great values of life are actually indicators of the majesty and beauty of God. As the ray of the sun gives us a suggestion as to what the sun is, the world points to us what God could be. Prakriti and Purusha are not two different things. The world and God are inseparables. Narayana and Lakshmi, says the Vishnu Purana, are like fire and heat, flower and the fragrance, oil and greasiness, water and liquidity, sun and light, and so on. And by such comparisons, it is made out that the two are in fact one being, envisaged as twofold for meditation and worship. The Sri Suktam is the invocation of God Himself as the great glory of His creation, His lordliness, sovereignty and His supreme sovereignty. The emotions of man, when they are religiously roused, have a tendency to consider the world as an evil and God as an otherworldly goal of life. This is an overestimation of the path that is to be trodden and an underestimation of the world. Neither is it advisable to overestimate the world, nor is it advisable to underestimate the supersensible realities. The path of truth is a via media or a golden mean. May we humbly surrender ourselves to this great mystery of God's glory as Lakshmi, revealed to us as prosperity all around, through which we reach the eternal abundance, Narayana. We shall now start the Sri Suktam.
Om Gananaam Tva Ganapati Gum Havamahe Kavim Kavinamupamashravastamam Jeshtharajam Brahmanam Brahmanaspata Anashrunvan Notibhissedasadhanam Prano Devi Saraswati Vaje Virvajini Vati Dhinama Vitrayavatu Ganeshaya Namaha Saraswatyai Namaha Shri Gurubhyo Namaha Harihi Om.
I'll chant each line once, you repeat twice after me.
Hiranyavarnam Harinim
Hiranyavarnam Harinim हिरण्यवर्णाम् हरिणीम्
सुवर्णरजतस्रजाम्
सुवर्णरजतस्रजाम् सुवर्णरजतस्रजाम्
हिरण्यवर्णाम् हरिणीम् सुवर्णरजतस्रजाम्
हिरण्यवर्णाम् हरिणीम् सुवर्णरजतस्रजाम् हिरण्यवर्णाम् हरिणीम् सुवर्णरजतस्रजाम्
चन्द्राम् हिरण्मयीम् लक्ष्मीम्
चन्द्राम् हिरण्मयीम् लक्ष्मीम् चन्द्राम् हिरण्मयीम् लक्ष्मीम्
जातवेदो महावः
जातवेदो महावः जातवेदो महावः
चन्द्राम् हिरण्मयीम् लक्ष्मीम् जातवेदो महावः
चन्द्राम् हिरण्मयीम् लक्ष्मीम् जातवेदो महावः चन्द्राम् हिरण्मयीम् लक्ष्मीम् जातवेदो महावः
हिरण्यवर्णाम् हरिणीम् सुवर्णरजतस्रजाम्
हिरण्यवर्णाम् हरिणीम् सुवर्णरजतस्रजाम्
चन्द्राम् हिरण्मयीम् लक्ष्मीम् जातवेदो महावः
चन्द्राम् हिरण्मयीम् लक्ष्मीम् जातवेदो महावः
ताम् महावः
ताम् महावः ताम् महावः
जातवेदो
जातवेदो जातवेदो
ताम् महावः जातवेदो
ताम् महावः जातवेदो ताम् महावः जातवेदो
लक्ष्मीमनपगामिनी
लक्ष्मीमनपगामिनी लक्ष्मीमनपगामिनी
ताम् महावः जातवेदो लक्ष्मीमनपगामिनी
ताम् महावः जातवेदो लक्ष्मीमनपगामिनी ताम् महावः जातवेदो लक्ष्मीमनपगामिनी
यस्याम् हिरण्यम् विन्देयम्
यस्याम् हिरण्यम् विन्देयम् यस्याम् हिरण्यम् विन्देयम्
गामश्वम् पुरुषानहम्
गामश्वम् पुरुषानहम् गामश्वम् पुरुषानहम्
यस्याम् हिरण्यम् विन्देयम् गामश्वम् पुरुषानहम्
यस्याम् हिरण्यम् विन्देयम् गामश्वम् पुरुषानहम् यस्याम् हिरण्यम् विन्देयम् गामश्वम् पुरुषानहम्
रिपीट् वन्स् आफ्टर् मी
ताम् महावः जातवेदो लक्ष्मीमनपगामिनी
ताम् महावः जातवेदो लक्ष्मीमनपगामिनी
यस्याम् हिरण्यम् विन्देयम् गामश्वम् पुरुषानहम्
यस्याम् हिरण्यम् विन्देयम् गामश्वम् पुरुषानहम्
Now we'll do all these four lines together.
हिरण्यवर्णाम् हरिणीम् सुवर्णरजतस्रजाम् चन्द्राम् हिरण्मयीम् लक्ष्मीम् जातवेदो महावः तामावह जातवेदो लक्ष्मीमनपगामिनी यस्याम् हिरण्यम् विन्देयम् गामश्वम् पुरुषानहम्।
रिपीट ट्वाइस आफ्टर मी।
अश्वपूर्वाम् रथमध्याम्
अश्वपूर्वाम् रथमध्याम् अश्वपूर्वाम् रथमध्याम्
हस्तिनाद प्रबोधिनीम्
हस्तिनाद प्रबोधिनीम् हस्तिनाद प्रबोधिनीम्
अश्वपूर्वान् रथमध्याम् हस्तिनाद प्रबोधिनीम्
अश्वपूर्वाम् रथमध्याम् हस्तिनाद प्रबोधिनीम् अश्वपूर्वाम् रथमध्याम् हस्तिनाद प्रबोधिनीम्
श्रियम् देवीमुपह्वये
श्रियम् देवीमुपह्वये श्रियम् देवीमुपह्वये
श्रीर्मा देवीर्जुषताम्
श्रीर्मा देवीर्जुषताम् श्रीर्मा देवीर्जुषताम्
श्रियम् देवीमुपह्वये श्रीर्मा देवीर्जुषताम्
श्रियम् देवीमुपह्वये श्रीर्मा देवीर्जुषताम् श्रियम् देवीमुपह्वये श्रीर्मा देवीर्जुषताम्
अश्वपूर्वान् रथमध्याम् हस्तिनाद प्रबोधिनीम्
अश्वपूर्वाम् रथमध्याम् हस्तिनाद प्रबोधिनीम्
श्रियम् देवीमुपह्वये श्रीर्मा देवीर्जुषताम्
श्रियम् देवीमुपह्वये श्रीर्मा देवीर्जुषताम्
काम् सोऽस्मिताम्
काम सोऽस्मिताम् काम सोऽस्मिताम्
हिरण्यप्राकारामार्द्राम्
हिरण्यप्राकारामार्द्राम् हिरण्यप्राकारामार्द्राम्
काम सोऽस्मिताम् हिरण्यप्राकारामार्द्राम्
काम सोऽस्मिताम् हिरण्यप्राकारामार्द्राम् काम सोऽस्मिताम् हिरण्यप्राकारामार्द्राम्
ज्वलन्तीम् तृप्ताम् तर्पयन्तीम्
ज्वलन्तीम् तृप्ताम् तर्पयन्तीम् ज्वलन्तीम् तृप्ताम् तर्पयन्तीम्
काम सोऽस्मिताम् हिरण्यप्राकारामार्द्राम् ज्वलन्तीम् तृप्ताम् तर्पयन्तीम्
काम सोऽस्मिताम् हिरण्यप्राकारामार्द्राम् ज्वलन्तीम् तृप्ताम् तर्पयन्तीम् काम सोऽस्मिताम् हिरण्यप्राकारामार्द्राम् ज्वलन्तीम् तृप्ताम् तर्पयन्तीम्
पद्मे स्थिताम् पद्मवर्णाम्
पद्मे स्थिताम् पद्मवर्णाम् पद्मे स्थिताम् पद्मवर्णाम्
तामिहोपह्वये श्रियम्
तामिहोपह्वये श्रियम् तामिहोपह्वये श्रियम्
पद्मे स्थिताम् पद्मवर्णाम् तामिहोपह्वये श्रियम्
पद्मे स्थिताम् पद्मवर्णाम् तामिहोपह्वये श्रियम् Padme sthitam padmavarnam tamiho pahvaye shriyam.
I'll chant these two lines once. You repeat once after me.
Kam sosmitam hiranya prakara matram jvalantim truptam tarpayantim.
Kam sosmitam hiranya prakara madram jvalantim triptam tarpayantim.
Padme sthitam padmavarnam tamihopahvaye shriyam.
Padme sthitam padmavarnam tamihopahvaye shriyam.
We'll chant all these four lines together.
Ashvapurvam rathamadhyam hastina adaprabodhinim shriyam devim upahvaye shrirma adevirjushatam. Kam sosmitam hiranyaprakaram adram jvalantim triptam tarpayantim. Padme sthitam padmavarnam tamihopahvaye shriyam.
Chandram prabhasam
yashasajvalantim
chandram prabhasam yashasajvalantim
it is
yashasajvalantim
once more.
Yashasajvalantim
chandram prabhasam yashasajvalantim
it is not like that. You are chanting yashasa is also down.
Yashasajvalantim.
Once more.
Yashasajvalantim.
Chandram prabhasam yashasajvalantim. Shriyam loke. Devajushtamudaram. Shriyam loke devajushtamudaram.
Chandram prabhasam yashasajvalantim. Chandram prabhasam yashasajvalantim shriyam loke devajushtamudaram.
Tam padminimim.
Sharanamaham prapadye.
Tam padminimim sharanamaham prapadye.
Alakshmirme
nasyatam tvam vrune. अलक्ष्मीर्नेनश्यताम् त्वाम् वृणे अलक्ष्मीर्नेनश्यताम् त्वाम् वृणे
ताम् पद्मिनीमीम् शरणमहम् प्रपद्ये अलक्ष्मीर्नेनश्यताम् त्वाम् वृणे
ताम् पद्मिनीमीम् शरणमहम् प्रपद्ये अलक्ष्मीर्मे नश्यताम् त्वाम् वृणे ताम् पद्मिनीमीम् शरणमहम् प्रपद्ये अलक्ष्मीर्मे नश्यताम् त्वाम् वृणे
ऐ विल् चाण्ट् ईच् लैन् वन्स् दीस् टु लैन्स् यु रिपीट् वन्स् आफ्टर् मी
चन्द्राम् प्रभासाम् यशसा ज्वलन्तीम् श्रियम् लोके देवजुष्टामुदाराम्
चन्द्राम् प्रभासाम् यशसा ज्वलन्तीम् श्रियम् लोके देवजुष्टामुदाराम्
ताम् पद्मिनीमीम् शरणमहम् प्रपद्ये अलक्ष्मीर्मे नश्यताम् त्वाम् वृणे
ताम् पद्मिनीमीम् शरणमहम् प्रपद्ये अलक्ष्मीर्मे नश्यताम् त्वाम् वृणे
Now we'll chant these two lines together.
Chandram prabhasam yashasajvalantim shriyam loke devajushtamudaram tam padminimim sharanamaham prapadye alakshmirne nashyatam tvam vrne
yadaksharapadabhrashtam matrahiram duyadbhavet तत्सर्वम् क्षम्यताम् देव नारायण नमोऽस्तु ते विसर्गबिन्दुमात्राणि पदपादाक्षराणि च न्यूनानि चातिरिक्तानि क्षमस्व सा ईश्वरा अपराधसहस्राणि क्रियन्ते हर्निशम् मया दासोऽयमिति मामत्वा क्षमस्व सा ईश्वरा अन्यथा शरणम् नास्ति त्वमेव शरणम् मम तस्मात् कारुण्यभावेन रक्ष रक्ष साईश्वरा हरिः ओम् तत्सत् श्री साईश्वरार्पणमस्तु
विथ दिस् वी कम् टु एन् एण्ड् टु दिस् वीक्स् रेडियो साई वेदम् ट्यूटर् नौ ऐ हेण्ड् ओवर् द माइक् टु ब्रदर् बिशु टु टेक् ओवर् विथ रेडियो साई भजन् क्लास् रूम् ओवर् टु ब्रदर् बिशु